गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः। सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। सर्वेभ्यो नमः। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र पञ्चभूतानां, तत्र पृथ्वी वायु तेजः इति आकाशः इति तेषां, जलम् इति तेषां लक्षणं। वयं लक्षणग्रन्थे स्मः इदानीं, तत्र लक्षणं कुर्वन्तः, तत्र पदार्थानां लक्षणं कथं भवति इति पश्यन्तः स्मः वयम्। अत्र गतवर्गे तत्र वयं तत्र जलस्य तेजसः इति लक्षणं दृष्टवन्तः। अतः तत्र गतवर्गस्य विषयान् अधिकृत्य आदाय तत्र नरसिंहमहोदयस्य उपस्थापनं भवति आदौ। अतः कृपया महोदय।
नमस्ते महोदय, नमस्ते सर्वेभ्यः। गतकक्षायां वयं गन्धवती पृथिवी, गन्धवत्वं पृथिव्याः लक्षणम् इत्यनयोः भेदनिरूपणम् इति विषये पठितवन्तः। लक्ष्ये विद्यमानः कश्चित् विलक्षणधर्मः, यत् लक्ष्यसामान्यजातीयेषु सर्वदा वर्तते परन्तु लक्ष्यविजातीयेषु कदापि न वर्तते, तत् लक्षणम् इति उच्यते। लक्षणस्य लक्ष्ये विद्यमानत्वं समन्वय इति उच्यते। तर्कसङ्ग्रहग्रन्थे गन्धवती पृथिवी इति पृथिव्याः लक्षणवाक्यं दत्तमस्ति। अत्र गन्धवती इति लक्ष्यसामान्यगुणं न सूचयति, गन्धवती इति गुणिवाचकशब्द एव, तत् गुणिमेव सूचयति, इत्युक्ते पृथिव्यामेव सूचयति, पृथिवीमेव सूचयति। यथा विशेषणविशेषकरपत्रे अस्माभिः पठितम् उन्नतवृक्षः, उन्नतबालकः इत्यादि उदाहरणेन, उदाहरणरूपेण उन्नतः कः इत्युक्ते वृक्षः एव, उत्तमः कः इत्युक्ते बालकः एव। अतः एतादृशवाक्यानि लक्ष्ये विद्यमान विलक्षणलक्षणं न बोधयति। एतत् समन्वयनिरूपणं सम्यक्, एतत्र समन्वयनिरूपणं सम्यक् न दृश्यते। ते लौकिकव्यवहारः एव भवन्ति, परन्तु नैयायिकव्यवहारे लक्षणवाक्यं यत् अस्ति तत् परं त्वतलादिभाववाचकप्रत्ययं योजयित्वा लक्ष्यवाचकपदोत्तरं षष्ठीविभक्ति प्रयुञ्जते, यथा गन्धवत्वं पृथिव्या लक्षणम् इति। किमर्थम् एतादृशं करणीयम् इत्युक्ते, लक्ष्यगतं कञ्चन असाधारणधर्मं ज्ञात्वा तत् ज्ञानं लक्षणविचारे अपेक्षितम्। केवलं प्रथमान्तपदे गन्धवती शीतस्पर्शवत्य इत्यादि तु लक्ष्यमेव निर्दिश्यते, न तु लक्ष्यगतधर्मं। सहस्रानिमती का गौ एव, गन्धवती का पृथिवी एव। यदि लक्ष्यवाचकपदस्य लक्षणवाचक पदस्य विभक्तिसमानं चेत् तत्र आधारादयभावः न ज्ञातुं शक्नुमः। तत् ज्ञानाय लक्षणवाक्यं तथा स्यात् यथा स्पष्टधर्मबोधः स्यात्। अतः गन्धवती इत्यत्र मतुप् अनन्तरं भावप्रत्ययं योजनीयं भवति। इदानीं गन्धवती योगत्व गन्धवत्वं, गन्धवत्व इति पदं भवति, तत्र विद्यमानेन भावप्रत्ययेन लक्ष्यस्य भावम् अथवा धर्मः बोध्यते। स च भावः गन्धसमानवर्ती भवति, इत्युक्ते गन्धवत्वम् इत्यस्य अर्थः गन्ध एव। मत्वर्थ्यात् भावप्रत्यये प्रकृत्यर्थं गमयति इति प्रसिद्धनियमः, इत्युक्ते तद्वत्त्वं तदेव इति न्यायग्रन्थेषु बहुत्र पठनाय लभ्यते। गन्धयोगमतुप् योगत्व गन्धः, शीतस्पर्शः योगमतुप् योगत्व शीतस्पर्शः, सास्नायोगमतुप् योगत्व स्थास्ना, इत्युक्ते गन्धवत्वम् इत्यनेन गन्धः, शीतस्पर्शवत्वम् इत्यनेन शीतस्पर्शः, सास्नावत्वम् इत्यनेन सास्ना एव बोध्यते। अत्र आधारादयभावः धर्माधर्मीभावः सुस्पष्टः भवति। इदं शास्त्रे तटस्थलक्षणम् इत्युच्यते। तटस्थलक्षणं गुणं सूचयति, इत्युक्ते यत्र यत्र तटः अस्ति तत्र नद्यः ज्ञानं भवति, यत्र यत्र नदी अस्ति तत्र तटस्य ज्ञानं भवति, तथा एव यत्र यत्र गन्धः अस्ति तत्र पृथिवी अस्ति इति ज्ञानं भवति, यत्र यत्र पृथिवी अस्ति तत्र गन्धम् अस्ति इति ज्ञानं भवति। अतः एव रूपरहितस्पर्शवान् वायु इति लक्षणवाक्यं, रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति ग्रन्थकारे व्याख्यायते तथा एव पृथिव्यालक्षणं गन्धनिष्ठादेतनिरूपित अधिकरणतावत्त्वं पृथिवीलक्षणम् इति भवति. वायोलक्षणं शीतस्पर्श निष्ठादेतनिरूपित अधिकरण क्षम्यतां जलस्य लक्षणं शीतस्पर्शनिष्ठादेतनिरूपित अधिकरणतावत्त्वम् आपां लक्षणम् इति भवति. तेजसलक्षणम् उष्णस्पर्शनिष्ठादेतनिरूपित अधिकरणतवत्वं तेजसलक्षणम् इति भवति. गतकक्षायां शरीरादिविभाग इति विषये वयं जलस्य लक्षणं तेजसलक्षणं वायोलक्षणमपि पठितवन्तः. तत् अहम् एकवारं पठामि. शीतस्पर्शवत्य आपः ताद्विविधाः नित्यानित्या अनित्याश्च नित्याः परमाणुरूपाः अनित्याः कार्यरूपाः पुनस्त्रिविध शरीरेन्द्रियविषयभेदात् शरीरं वायुलोके वर्णलोके इन्द्रियं रसग्राहकं रसनं जीवाग्रवर्ति विषयः सरिस्समुद्रादिः उष्णस्पर्शवत्तेजः तत् द्विविधं नित्यम् अनित्यं च नित्यं परमाणुरूपम् अनित्यं कार्यरूपं पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात् शरीरम् आदित्यलोके इन्द्रियं रूपग्राहकं चक्षुः कृष्णाग्रवर्ति कृष्णताराग्रवर्ति विशेषचतुर्विधः भौम दिव्य उदर्य आकाशभेदात् भौमं वहण्यादिकम् अभिन्दनं दिव्यं विद्युदादि भुक्तस्य परमाणहेतु उदर्यम् आकरजं सुवर्णादि रूपरहितस्पर्शवान् वायुः स द्विविध नित्य अनित्यश्च नित्यः परमाणुरूपः अनित्यकार्यरूपः पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् शरीरं वायुलोके इन्द्रियं स्पर्शग्राहकं त्वक् शरीरा सर्वशरीरवर्ति विषयो वृक्षादिकम्पनहेतुः शरीरान्तसञ्चारी वायुप्राणः स च एक उपाधिभेदात् परम प्राणापान आदिसंज्ञं लभते. इत्युक्ते पृथिवी जलं तेजः वायु इत्यत्र इत्यनयोः लक्षणवाक्ये तस्य प्रथमतया द्विविधम् अस्ति नित्यनित्यश्च नित्य सर्वदा परमाणुरूपे वर्तते. अनित्यपृथिवेषु त्रिविधं भवति शरीरम् इन्द्रियं विषयम् इति. पुनः विषये तत्र त्रिविधं वा चतुर्विधं वा भवति. सारांशरूपेण ग्रहणसौकर्याय पृथ्व्यादि चतुष्टयश्च इत्युक्ते पृथ्वी तेजवायु इत्यनयोः लक्षणं पट्टिकापुस्तके दत्तमस्ति. द्रव्याणि क्रमशः पृथ्वी जलं तेजवायुः शरीराणि क्रमशः मनुष्यादीनां वर्णलोके आदित्यलोके वायुलोके इन्द्रियाणि ग्रहणं रसनं चक्षुत्वक् विषयः मृत्पाषाणादि सरिस्समुद्रादि भौमादि वृक्षादिकम्पनहेतुः. एतस्य विषये विस्तरेण अग्रे भविष्यति. इदानीम् अस्माकं मुख्यलक्षणं मुख्यलक्ष्यं लक्षणवाक्यं कथं भवनीयम् इति. गन्धवती पृथिवी शीतपुरुषवती आप उष्णस्तत्वतेजः इत्यत्र एकमेव दलं दृश्यते. परन्तु वायोर्लक्षणं पश्यामः चेत् रूपरहितस्पर्शवान् इति दलद्वयं भवति. किमर्थम् एतादृशमिति अद्य पठामः. धन्यवादः महोदय.
धन्यवादः महोदय. समीचीनं हा अस्तु हा अतः तत्र हा समीचीनमस्ति महोदय. अतः
धन्यवादः.
पुनस्मरणं जातम् इति अपि स्पष्टमस्ति इति मन्ये. अतः तत्र इन्द्रियाणां विषये तत्र अग्रे किञ्चित् भवति, किन्तु इदानीं तत्र अस्माकं लक्ष्यम् अत्र अस्ति, तत्र लक्षणवाक्यं कथम् अस्ति इति तत्र इति एव अस्ति. इदानीम् अग्रे तत्र एतावत् तत्र गन्धवती पृथिवी अथवा शीतस्पर्शवत्यः आपः इति तादृशलक्षणवाक्यानि वयं दृष्टवन्तः. किन्तु तत्र वायुलक्षणे किञ्चित् वैलक्षण्यम् अस्ति, नाम तत्र रूपरहितः स्पर्शवान् वायुः इति लक्षणवाक्यम् अस्ति. तत्र तत्र घटकाः सन्ति, नाम तत्र लक्षणवाक्यः घटित लक्षणवाक्यम् इति वदामः. घटकाः नाम भागाः के इत्युक्ते तत्र रूपरहितः इति एकं दलं, स्पर्शवान् इति अन्यत् दलम् अस्ति. अतः तत्र दलद्वयमिति एव अत्र वायोः लक्षणवाक्यस्य वैलक्षण्यं नाम तत्र भिन्नमस्ति. एतद् वाक्यं गन्धवती पृथ्वी इति तत्र केवलं गन्धवती इति एव एकः एव भागः, एकः एव खण्डः तत्र आसीत्. किन्तु अत्र दलद्वयमस्ति. अग्रे अपि एतादृशवाक्यानि वयं पश्यामः. तत्र लक्षणवाक्ये अनेके घटकाः भवन्ति, तस्मिन् समये किं कर्तव्यम् इति तत्र इदानीं तत्र वयं जानीमः. तत्र एतस्य उदाहरण एतदेव अस्माकम् उदाहरणम्. एतेन वयं सम्यक् ज्ञानं प्राप्नुमः तत्र लक्षणवाक्ये घटकाः सन्ति चेत् किं कर्तव्यम् इति. अतः तत्र गतवर्गे वयं किञ्चित् पठितवन्तः, किन्तु तत्र धलसार्थक्यं नाम किम् इति तथा एव आरम्भं कुर्मः तर्हि. अस्तु, तर्हि तत्र योगेन्द्रमहोदय आरम्भं करोति वा महोदय? धलसार्थक्यं नाम किम् इति 43
दलसार्थक्यं नाम किम्? अतः वायुग्रन्थे विशेषः चिन्त्यते. रूपरहितः स्पर्शवायुः इति वायुलक्षणम्. पूर्वदर्शितरीत्या रूपरहित्वे सति स्पर्शवत्वं वायोः लक्षणम्. रूपरहितः इत्यस्य रूपसामान्य अभाववान् इति अर्थः. स्पर्शत्वं स्पर्श एव. अत्र रूपरहितत्वं स्पर्शवत्वम् इति द्वे दले भागौ वर्तते. विषये अस्मिन् किञ्चित् विचार्यते.
हा अस्तु महोदय, तावत् किञ्चित् वदतु महोदय.
वायुः लक्षणमस्ति. प्रथमं तु रूपरहित अस्ति. द्वितीयलक्षणमस्ति स्पर्शवान् अस्ति. अत्र रूप यः अस्ति तत्र रूपसामान्य अभाववान् अस्ति. इत्युक्ते रूपस्य भावः तत्र नास्ति इति अहं चिन्तयामि.
रूपस्य अभावः अस्ति
खलु? रूपस्य अभावः अस्ति इति एव रीत्या स्पर्शवत्वम् अस्ति. तत्र स्पर्शः अस्ति.
हा, स्पर्शः अस्ति, समीचीनं. रूपः नास्ति, रूपं नास्ति, किन्तु स्पर्शः
स्पर्शः
अस्ति इति वायोः लक्षणम्
इति हि वायोः लक्षणम्.
हा, रूपरहितः नाम किमस्ति?
रूपस्य रूपः नास्ति.
हा, रूपस्य अभावः. तत्र
रूपस्य अभावः
विशेष अभावः वा तत्र विशेष अभावः वा अथवा सामान्य अभावः वा?
सामान्य अभावः.
केवलं तत्र सामान्य तत्र नीलरूपाभावः इति तादृशं नास्ति. केवलं रूपं किमपि रूपं नास्ति इति अर्थः. रूपसामान्य अभावः. अतः तत्र वायुः किं भवति? यदि तत्र रूपसामान्य अभावः वायोः अस्ति चेत् वायुः रूपसामान्य अभाववान्.
रूपसामान्य अभावः, तस्य रूपः नास्ति परन्तु स्पर्श कर्तुं शक्यते.
हा, स्पर्शः
भवति.
रूपसामान्य अभावः तत्र वायौ अस्ति. अपि स्पर्शः अपि वायौ अस्ति. अतः तत्र रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणं नाम यदि रूपरहितम् अस्ति अपि तस्मिन् सन्दर्भे यदि स्पर्शवत्वं नाम स्पर्शः अस्ति चेत् तद् सः पदार्थः वायुः इति अस्माकम् इच्छा. तत्र वायोः लक्षणवाक्यम् एतदेव वदति. अतः तत्र द्वे दले अथवा भागौ वर्तेते द्विवचने, यतोहि तत्र द्वे दले भागौ वर्तेते. अत्र वर्तेते एतावत् तत्र धल एकमेव धलमासीत् गन्धवती पृथ्वी अथवा शीतस्पर्शवत्यः आपः इति एकमेव जलम् आसीत् किन्तु इदानीं तत्र जलद्वयमस्ति तेन किम् इति इदानीम् अग्रे वयं विचारं कुर्मः हा विचार्यते तत्र निच् तत्र चर् धातुः विचार्यते इति उपसर्गः अस्तु समीचीनं महोदय
धन्यवादः
अस्तु अग्रे तत्र अग्रे कः अथवा कः पठति अस्तु तत्र हा नीता भगिनी अग्रे पठितुम् इच्छति वा अग्रे
कश्चित् सखायं गृहसङ्केतं पृच्छति उत्तररूपेण सखा यदि स्वस्य पत्रसङ्केतं वदति सम्यक् एव ग्रहणसौकर्याय समीपस्थ किञ्चित् प्रसिद्धं स्थलम् अतिरिक्तम् अपि वदति चेत् न दोषः परन्तु अनावश्यकं यद्यत् गृहसमीपे वर्तते तत् पक्तुम् आरभते चेत् सः परिहास्यतां प्राप्नोति अतः वक्त्रा बोधनीयं यत् वस्तु तस्य सम्यक् परिज्ञानाय वस्तुसम्बन्धी आवश्यकः धर्म निर्देष्टव्यः परन्तु फलु अनावश्यकं नैव प्रयोक्तव्यम् इति लोकसिद्ध अयं संव्यवहारः किं वा शास्त्रीये विचलक्षणव्यवहारे एकस्यैव वस्तुनः साधनाय ज्ञापनाय साधकद्वयं यदि वादे उपन्यस्येत् पराभवयोग्यः भवेत् अत्र एकम् उदाहरणं दत्तमस्ति गृहसङ्केतस्य विषये यदि गृहसङ्केतस्य विषये पृच्छ कोऽपि पृच्छति प्रश्नम् अस्ति गृहसङ्केतस्य विषये तत् उत्तरं किं भवेत् तत् पत्रसङ्केतम् इत्युक्ते पोस्टल् अड्रेस् पत्रसङ्केतं वदति अत्र डीटेल् ऐ मीन्
तावदेव वक्तव्यं
स्थानं वा मार्गस्य
मार्गः मार्गः प्रदेशः अपि तत्र
भवनस्य नाम
इति पत्रसङ्ख्या वा इति वक्तव्यम् अपि तत्र पुरं नाम तत्र बेङ्गलूरुनगरम् इति तत्र नगरम् एतावत् दद्मश्चेत् समीचीनं
पर्याप्तमस्ति ग्रहणसौकर्याय समीपस्थः अत्र किं प्रसिद्धस्थलमस्ति समीपे प्रसिद्धं कोऽपि स्थलमस्ति तस्मिन् विषये अपि वदति तत् अपि सम्यक् भवति न दोषः तस्मिन् किन्तु अनावश्यकं कोऽपि अस्ति तत्र इत्युक्ते तस्य कोऽपि सम्बन्धः नास्ति यदि पत्रसङ्केत
गृहस्य पुरतः तत्र वैद्यः अस्ति गृहस्य पृष्ठतः तत्र एम् एल् ए अस्ति इति एतद् वक्तुं वदामश्चेत्
इतिहासविषये वदति तत् तस्य कोऽपि आवश्यकतां नास्ति तत् यदि कोऽपि अनावश्यकं वदति तत् परिहासस्य विषयः भवति तत् सम्यक् ज्ञानाय न किन्तु परिहासाय एव प्राप्यते अतः अनावश्यकं यत् अस्ति तत् नैव वक्तव्यम् इति लोकसिद्धव्यवहारः अस्ति
तत्र अतः तत्र वक्त्रा बोधनीयं यद्वस्तु तत् तस्य सम्यक् परिज्ञानाय तस्य ज्ञानप्राप्तेः तत्र केवलं वस्तुसम्बन्धी आवश्यकः धर्मः एव तत्र निर्देष्टव्यः तत्र
तस्यैव उल्लेखं करणीयं
हा इति अर्थः हा समीचीनं
शास्त्रीये विचक्षणव्यवहारे एकस्यैव वस्तुनः साधनाय ज्ञापनाय साधकद्वयं यदि वादी उपन्यस्ये पराभवयोग्य भवेत् तत् न अवगतं सम्यक्तया
तत्र एतावत् तत्र लौकिक उदाहरणम् आसीत् नाम तत्र लोकप्रसिद्धः व्यवहारः अस्ति तत्र केवलम् आवश्यकम् एव वक्तव्यं अनावश्यकं यदस्ति तद् यदि वदामः तत्र परिहास्यतां प्राप्नुमः इति. तथैव शास्त्रीयविषये अपि तथैव भवति खलु, नाम यदि शास्त्रीयविचक्षणव्यवहारे, विचक्षण नाम तत्र प्रौढव्यवहारे, नाम तत्र वैस् इति च विचक्षण नाम वैस् इति अथवा प्रौढ इति प्रौढव्यवहारे तत्र किमपि गभीरविषयस्य चर्चा भवति तस्मिन् समये कोऽपि तत्र एकस्यैव वस्तुनः साधनाय तत्र किमपि सः वक्तुम् इच्छति, साधितुम् इच्छति, किन्तु एकमेव अस्ति, किन्तु साधनम् एकमेव अस्ति किन्तु साधकद्वयं, तत् साधितुं यदि सः साधकद्वयस्य उपयोगः करोति, उपयोगं करोति, साधितुम् एकमेव अस्ति किन्तु तत्र एतदपि अस्ति अन्यदपि अस्ति इति तादृशं सर्वं वदति चेत् तत्र पराभवयोग्यः, नाम तत्र तस्य उपहासः भवति, तत्र नाम तत्र जनाः परिहसन्ति तत्र एषः किमर्थम् एतत् सर्वं वदति इति. एतत् किमर्थम् अत्र दत्तमस्ति चेत् नाम अत्र लक्षणवाक्ये रूपरहितः स्पर्शवान् वायुः इति अस्ति, तत्र दलद्वयं किमर्थम्, एकमेव दलं समीचीनं न भवति वा इति प्रश्नः. तत्र किमर्थं दलद्वयम् अस्ति, पूर्वं गन्धवती इति एव पर्याप्तमासीत्, किन्तु अत्र रूपरहितः स्पर्शवान् इति अस्ति, किमर्थं दलद्वयं तत्र केवलं तत्र यदि तत्र स्थापयामः किन्तु किमर्थम् इति यदि न वदामः जनाः चिन्तयन्ति अस्तु तत्र एकस्यैव साधितुं शक्नुमः किन्तु एषः लेखकः तत्र साधकद्वयं स्थापितवान् अस्ति, वयं न जानीमः किमर्थम् एतत् कृतवान् इति ते चिन्तयन्ति.
अतः शास्त्रार्थै वादी प्रतिवादी इति
सत्यं सत्यं भगिनि, तत्र वादी प्रतिवादी सत्यं तथैव अस्ति. अतः तत्र यत् आवश्यकं तदेव वादी वदेत् इति अस्ति. समीचीनं भगिनि, धन्यवादः.
धन्यवादः.
अस्तु अग्रे सरामः तर्हि. अग्रे तत्र अना भगिनी अग्रे पठति वा? नमस्कारः.
नमस्कारः महोदय.
पेज् 42. न इदानीम् इत्थम् एव इति
इत्थम् एव वस्तु स्वरूपज्ञानाय लक्षणप्रयोगे कर्तव्ये एकेन दलेन वस्तुनः सम्यक् ज्ञानं भवति चेत् दलद्वयं न वक्तव्यं न प्रयोक्तव्यम्. एवमपि सङ्ग्रहकारणे दलद्वयं प्रयुक्तं तद् उपयोगः तु पूर्व उक्ताचिव्याप्तिरूपदोष दोषवरणाय पूर्व उक्त अचिव्याप्तिदोष अचिव्याप्तिरूपदोषवरणाय
इति अस्ति. समीचीनं तथैव
तदेव तत्र एकः प्रयोगः अस्ति तस्य दलद्वयस्य प्रयोगः अस्ति. किमर्थं प्रयोक्तव्यं? तत्र अचिव्याप्तिदोषः अस्ति, वयम् अस्माभिः पठितं दोषत्रयम् अस्ति. इदानीं सर्वाणि अचिव्याप्ति
अस्तु, तत्र परिच्छेदे यदस्ति तद्वदतु, अन्य कोऽपि तत्र दोषाः के इति वद.
अचिव्याप्तिदोष इत्युक्ते वयम् एकम् एव लक्षणं वदामः चेत् तत्र प्रायः एतेन लक्षणेन अन्यानि पदार्थानि अपि
लक्ष्यविजातीयेषु अपि तत्र लक्षणं भवति, वृत्तिः तत्र भवति इति, वृत्तित्वं भवति इति दोषः भवति. समीचीनं. अतः तत्र इत्थमेव तत्र एकमेव वाक्यं तत्र प्रथमवाक्यस्य अर्थः कः इति किञ्चित् वदतु.
इत्थमेव वस्तुस्वरूपज्ञानय लक्षणप्रयोगे कर्तव्ये एकेन दलेन वस्तुनः सम्यक् ज्ञानं भवति चेत् दलद्वयं न वक्तव्यम्. इत्युक्ते दलद्वयम् आवश्यकता, दलद्वयस्य आवश्यकता नास्ति चेत् यदि तत्र एकेन एव लक्षणेन तत् पदार्थं किं विवरणं समीचीनं
सिद्ध्यति चेत् एकेन दलेन लक्षणं सिद्ध्यति चेत् सिद्ध्यति चेत् तत्र दलद्वयम् इति तादृशरूपेण लक्षणवाक्यं न वक्तव्यं न वक्तव्यं. तत्र नाम तत्र लक्षणवाक्यं सम्यक् रीत्या वक्तव्यं भवति. एकेन दलेन भवति चेत् एकेन दलेन एव वक्तव्यम्, एकमेव दलं भवेत्. अत्र वस्तु, अत्र वस्तु अस्ति तत्र वायुः, वायुः स्वरूप, वायोः स्वरूपस्य ज्ञानाय लक्षणं, लक्षणवाक्यं स्थापयामः. तत्र वायुः कीदृशः अस्ति इति तस्य ज्ञानाय लक्षणवाक्यस्य प्रयोगः भवति. अस्माकं कर्तव्यं लक्षणग्रन्थे एषः एव कर्तव्यः अस्ति, नाम लक्षणप्रयोगः तस्य कः कः इति वक्तव्य इति वदामः. अत्र दलद्वयम् इति तस्य आवश्यकता नास्ति चेत् न वक्तव्यम्. किन्तु तत्र सङ्ग्रहकारेण किम् उक्तं? दलद्वयं प्रयुक्तमस्ति सङ्ग्रहकारेण, खलु? अतः तत्र प्रश्नः उदेति नाम किमर्थं सः एतत् कृतवान्. अतः तत्र तस्य उपयोगः अस्ति इति तत्र इदानीम् अग्रे पश्यामः. तस्य उपयोगः अस्ति तत्र, यदि दलम् एकमेव दलम् अस्ति चेत् तत्र अतिव्याप्तिदोषः भवति इति. अतः तत्र दलद्वयम् आवश्यकम् अस्ति. एतादृशं तत्र विवरणं तत्र वयं वदामः दलसार्थक्यं, नाम एतद् दलमपि आवश्यकम्, अन्यत् दलमपि आवश्यकं, नो चेत् दोषः भवति. किन्तु कीदृशः दोषः भवति इति सर्वं यदि तत्र सम्यक् रीत्या प्रतिपादयामः तद्भवति दलसार्थक्यं. समीचीनं भगिनि, अस्तु. तत्र अन्य कोऽपि तत्र वदति वा तत्र
महोदय? घटितलक्षणेषु इति वदनेन किमर्थं
किं भगिनि?
घटित इति वदनेन घटितलक्षणेषु घटित तद् पदस्य अर्थं न
घट. तत्र घटितं नाम घटकाः सन्ति, भागाः सन्ति इति तावत्.
भागाः, अस्तु.
घटकः नाम भागः इति तावदेव अस्ति. अस्तु तर्हि अग्रे तत्र तत्र लक्षणस्य दोषत्रयं, तत्र दोषत्रयं नास्ति चेदेव लक्षणम् इति वयं पठितवन्तः. तत्र कोऽपि वदति वा तत्र दोषत्रयं किम् अस्ति? एकमस्ति अतिव्याप्तिदोषः. अतिव्याप्तिदोषस्य लक्षण तस्य विवरणं तत्र पुष्पभगिनी वदति वा अतिव्याप्तिदोषस्य लक्षणं? तत्र अतिव्याप्तिदोष
पठामि वदामि पठामि
वदतु वदतु भगिनि वदतु.
अत्र पूर्वतन पृष्ठे दृष्ट्वा वदामि.
अस्तु वदतु, किन्तु वाक्यम् एकमेव तत्र, अथवा एकमेव वाक्यं सरलवाक्यं तत्र लक्ष्यं, तत्र लक्ष्य
कुत्र अस्ति महोदय? तद् पृष्ठं किम्?
अस्तु अन्य कोऽपि चिन्ता मास्तु भगिनि, अन्य कोऽपि वदेत् तर्हि. जयलक्ष्मी भगिनी वदति वा?
हा वदामि महोदय. अव्याप्ति अतिव्याप्ति इत्यस्य वा अव्याप्ति इत्यस्य वा?
त्रयमपि वदतु भगिनि.
अव्याप्तिदोषः अस्ति यदि कश्चन पदार्थः अस्ति, तत् पदार्थः सर्वेषु लक्ष्येषु न वर्तते, किन्तु केषुचित् एव पदार्थेषु वर्तते इति चेत् तत् अव्याप्तिदोषः इति वदामः. अतिव्याप्तिदोषः इति चेत् सर्वेषु पदार्थेषु एषः गुणः न चेत् पदार्थः वर्तते, किन्तु एतत् अलक्ष्ये अपि एषः गुणः वर्तते इति चेत् अतिव्याप्तिदोषः अस्ति. अजादीयेषु अपि वर्तते, लक्ष्ये अपि वर्तते चेत् अतिव्याप्तिदोषः इति भवति. अन्यः अस्ति असम्भवः दोषः इति, इत्युक्ते यः धर्मः अस्ति सः अन्यलक्ष्ये न भवति.
तत्र कस्मिन्नपि तत्र लक्ष्ये तत्र वृत्तित्वमेव नास्ति कुत्रापि
नास्ति, इत्युक्ते अस्मिन् लक्ष्ये एव भवति, अन्येषु लक्ष्येषु न भवति. एषः धर्मः इति
तत्र असम्भावना नाम तत्र कोऽपि लक्ष्यं किमपि लक्ष्यं नास्ति यस्मिन् तत्र लक्षणम् अस्ति एषः पदार्थः अस्ति. अथ तत्र असम्भवः दोषः लक्ष्ये कुत्रापि न वर्तते इति दोषः. समीचीनं, हा समीचीनं भगिनि. हा अस्तु, इदानीं तत्र अत्र
मया पृष्टं ज्ञापकं 39 महोदय.
हा धन्यवादः भगिनि. अस्तु समीचीनम्, अस्तु तर्हि अग्रेसरं तर्हि समीचीनं. हा तत्र नूतनतया तत्र
इदानीं पठामि, अग्रे न पठितुं न शक्नोमि.
अस्तु भगिनि, भवती पठतु तर्हि.
एकनिमिषः पृष्टम् अस्तु. हा अयं च रूपभावः
न न न कथम् उपयोगः इति
कथम् उपयोगः दलसार्थक्यं नाम किम्
इदानीं स्क्रीन् मध्ये अपि अस्ति 43 पेज् 43
अस्तु अस्तु महोदय, क्षम्यतां, देट् इस् टु स्माल् फार् मी टु सी, सो ऐ विल् ओपन् माय फोन्.
पुस्तके दृष्ट्वा वदतु भगिनि.
3 अस्तु, कुत्र अस्ति, किं वदामि,
कथम् उपयोगः.
कथम् उपयोगः उच्यते, रूपरहितत्वम् रहितत्वम् एव यदि वायुलक्षणं स्यात् तदा पृथिव्यादित्रिकं विहाय सर्वस्मिन् जगति अतिव्याप्तिः, सर्वत्र रूपाभावस्य सत्वात्, अतः स्पर्शवत्वम् इति दलं दातव्यम्. स्पर्शवत्वम् आकाशादौ अपि कापि नास्ति, क्वापि इति वदनेन को अपि
न वदतु, एकवारं पठतु तदनन्तरं पश्यामः.
क्वापि नास्ति, न न क्वापि किम् इति मनसि न
क्वापि इति अर्थे कुत्रापि
नास्ति इति इत्यतः न दोषः. स्पर्शवत्वमेव यदि वायुलक्षणं स्यात् तदा पृथिव्याम् अतिव्याप्तिः. अस्तु
अस्तु,
तद् कथम् उपयोगं कुर्मः इति, किं दलद्वयं किं कथम् उपयोगं कुर्मः, उपयोगम् अस्ति इति, तत्तु रूपरहितत्वम् एव यदि वायुलक्षणम् अस्ति चेत् तदा पृथ्व्यादि त्रिकं विहाय सर्वस्मिन् जगति अतिव्याप्तिः.
अतः तत्र तावत्पर्यन्तं वदतु भगिनि, तत्र किं भवति,
रूपरहितत्वम् एव वायुलक्षणम् अस्ति चेत् तदा पृथिव्यादित्रिकं त्रिकं तु परमाणु परिमाण तद्
न तद् नास्ति. किन्तु कः दोषः भवति, दोषः कः भवति,
विहाय सर्वस्मिन् अतिव्याप्तिः भवति, अतिव्याप्तिदोषः भवति.
अस्तु तर्हि उदाहरणं वदतु, तत्र रूपरहितत्वम् इति एव दलम् अस्ति चेत्, एकमेव दलम् अस्ति चेत् कुत्र कुत्र भवति रूपरहितत्वं,
रूपरहित इति वदनेन द्रव्ये पृथ्वी पृथ्वी
पृथिव्यां रूपरहितत्वम् अस्ति वा?
हा अस्ति न,
पृथ्व्यां रूपरहितत्वम् अस्ति, रूपस्य अभावः अस्ति वा अथवा रूपम् अस्ति वा पृथिव्यां?
रूपमस्ति, रूपमस्ति,
हा अतः रूप रूपाभावः पृथिव्यां नास्ति,
पृथिव्यां
रूपाभावः कुत्र अस्ति?
रूपाभावः वायु,
किन्तु वायुः एव इदानीं लक्षणम् अस्ति, तत्र वायु वायु अस्ति इति जानीमः समीचीनं, किन्तु तत्र केवलं वायु अस्ति इति वा अथवा अन्यत्र अपि अस्ति वा?
वायु रूपरहितं आपमपि अस्ति,
रूपम् अस्ति वा अथवा रूप अभावः वायु तत्र जले अस्ति वा?
रूप अभावः नास्ति, रूपम् अस्ति,
हा रूपम् अस्ति जले, अस्तु, किन्तु रूपं कुत्र नास्ति इति वदतु भगिनि,
कुत्र नास्ति? स्पर्श इति जलं आकाश,
हा अस्तु 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 वदतु वदतु, हा
आकाशे
आकाशे नास्ति, मनसि नास्ति, आत्मनि नास्ति,
मनसि नास्ति अस्मि आत्मनि नास्ति,
समवाये नास्ति,
अस्ति मनसि विषयिता एव,
न न न हा किन्तु तत्र रूपं नास्ति इति कृत्वा,
नास्ति रूपं नास्ति
कृत्वा तत्र अतिव्याप्तिदोषः भवति खलु, नाम तत्र पृथिव्यादित्रिकं, त्रिकं नाम त्रयं, तत्र त्रयम् इति किम् इति तत्र पृथ्वी अपि जलम् अपि तेजः तेजः हा किन्तु तत्र वायोः अपि अस्ति, किन्तु तत्र वायु विहाय तत्र पृथ्वी जलं तेजः
तेजः
तत्र रूपमस्ति, अन्यत्र कुत्रापि रूपं नास्ति, रूपाभावः एव सर्वत्र वर्तते, अतः रूपाभावः सत्वात् इति समीचीनं
भवति,
अस्तु समीचीनं, तावत्पर्यन्तं समीचीनं भगिनि, अस्तु अग्रे अन्य कोऽपि वदतु, धन्यवादः भगिनि, हा
अस्तु क्षम्यतां क्षम्यतां महोदय,
न समीचीनमस्ति भगिनि, हा अस्तु अग्रे तत्र अग्रे तत्र अशोक महोदय किञ्चित् वदति वा अग्रे?
अस्तु महोदय,
हा अतः स्पर्शवत्वम् इति ततः तत्र पुष्पभगिनी परिच्छेदं पठितवती, तत्र वाक्यद्वयस्य तत्र प्रतिपादनं कृतवती, इदानीं तत्र अग्रे अतः स्पर्शवत्वम् इति धलं दातव्यम् इति ततः आरभ्य किञ्चित् वदतु,
अतः स्पर्शवत्वं दलं दातव्यं, स्पर्शवत्वम् आकाशादौ क्वापि नास्ति इत्यतः न दोषः, स्पर्शवत्वम् एव यदि वायुलक्षणं स्यात् तदा पृथिव्याम् इति पृथिव्याम् इति व्याप्तिः,
पृथिव्याम् अतिव्याप्तिः,
पृथिव्याम् अतिव्याप्तिः, पृथिव्याम् अतिव्याप्तिः, अतः
अस्तु एतावत्पर्यन्तं किम् अवगतवन्तः वयं, केवलं रूपरहितत्वम् इति एव वायोः लक्षणं भवति चेत् दोषः भवति, अतिव्याप्तिदोषः
भवति, स्पर्शवत्वं आकाशे अस्ति,
स्पर्शवत्वम् आकाशे नास्ति,
आकाशे नास्ति किन्तु पृथिव्याम् अस्ति, जले अस्ति, स्पर्शवत्वम् आकाशे आकाशे नास्ति, आत्मने नास्ति इत्यादौ,
तत्र समीचीनं, तत्र स्पर्शवत्वं तत्र आकाशादौ तत्र कुत्रापि नास्ति इति इत्यतः तत्र न दोषः, नाम स्पर्शवत्वं यदि स्पर्शवत्वम् आकाशे अपि अस्ति किं भवति, पुनः दोषः भवति खलु
अतिव्याप्तिदोषः अस्ति
यतोहि तत्र रूपरहितत्वं वायुवपि अस्ति आकाशे अपि अस्ति इदानीं स्पर्शवत्वम् इति दलं स्वीकुर्मः यदि स्पर्शवत्वम् इति आकाशे अपि अस्ति पुनः तत्र अतिव्याप्तिदोषः भवति अतः सः वदति आकाशादौ कुत्रापि नास्ति अतः तत्र दोषः नास्ति अत्र न दोषः अतः एतत् दलं स्वीकर्तुं शक्नुमः तत्र स्पर्शवत्वम् इति स्वीकर्तुं शक्नुमः इदानीं स्पर्शवत्वम् इति एकमेव दलम् अस्ति चेत् किं भवति
स्पर्शवत्वम्
इति एव एकमेव दलं तत्र रूपरहितत्वम् इति निष्कासयामः रूपरहितत्वं मास्तु केवलं स्पर्शवत्वम् इति एव वायोः लक्षणमिति भवति चेत् दोषः भवति वा
स्पर्शवत्वं पृथिव्याम् अस्ति जले अस्ति अतः चेजसे अपि अस्ति अतः अतिव्याप्ति दोषः भवेत्
पुनः भवति अतः तत्र दलद्वयमपि आवश्यकं रूपरहितत्वमपि आवश्यकं स्पर्शवत्वमपि आवश्यकम् आवश्यकम् अस्ति इदानीं तत्र इदानीं वयं तत्र दलसार्थक्यं कृतवन्तः तत्र दलद्वयमपि आवश्यकम् इति किन्तु तेन पर्याप्तं वा इति अपि इदानीं द्रष्टव्यमस्ति दलद्वयं तयोः आवश्यकता अस्ति किन्तु तत्र तेन पर्याप्तं वा इदानीं तत्र केवलं वायुः एव तत्र लक्ष्यं भवति वा इति एतेन लक्षणेन केवलं वायोः सङ्केतः एव भवति वा अथवा अन्यत् किमपि अस्ति वा इदानीमपि दोषः अस्ति वा इति वक्तव्यं अतः तत्र इदानीं तत्र वयं पश्यामः तत्र तत्र अग्रे अग्रे अशोक महोदय भवानेव किञ्चित् पठति वा तत्र अग्रे अपि तत्र
अतः दलद्वयं मिलित्वा लक्षणमिति न अतिव्याप्तिः इत्थमेव सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इत्यादिषु दलद्वयघटितलक्षणेषु बोध्यं वक्ष्यते च अतः द्वे लक्षणे द्वे मिलित्वा एव लक्षणम्
तत्र दलद्वयं तत्र दले द्वये अस्ति चेत् तत्र लक्षणं भवति इति अतिव्याप्तिः नास्ति इति वदति तत्र चित्ररूपेण प्रदर्शयति तत्र अतः तत्र एतत् वयं किञ्चित् अन्यरूपेण किञ्चित् कुर्मः तर्हि तत्र तत्र एतदस्ति तत्र रूपं पृथिवी जलम् अपि तेजः तत्र तत्र रूपम् अस्ति खलु रूपाभावः अन्यत्र सर्वत्र रूपाभावः अस्ति वायुः कुत्र भवति वायुः अत्र अस्ति वा अत्र अस्ति वा
रूपाभावः अस्ति
रूपाभावे अस्ति अतः तत्र वायुः अत्र अस्ति अपि तत्र स्पर्शः स्पर्शाभावः वायुः अत्र अस्ति स्पर्शः तत्र वायुः भवति इति कृत्वा स्पर्शाभावः अन्यत्र सर्वत्र स्पर्शाभावः भवति अतः तत्र वायौ रूपाभावः अस्ति अपि स्पर्शः अस्ति अन्यत्र कुत्रापि तत्र द्वयमपि नास्ति तत्र यदि रूपमस्ति चेत् तत्र स्पर्शः नास्ति इति खलु भवति खलु तत्र रूपः नास्ति चेत् स्पर्शः भवति इति तत्र तादृशः केवलं वायु एव भवति अथवा अन्यरीत्या एतदेव चित्रं तत्र एतादृशरूपेण अपि पश्यामः तत्र यत्र तत्र किञ्चित् विवृणोति वा महोदय अत्र चित्रम् उपयुज्य चित्रं
पृथ्वी जले ते
तेजसि
तेजसे वायोर् स्पर्शः अस्ति आकाशे मनसे समवाये विशेषे
इत्यादि इत्यादि तत्र सर्वत्र रूपाभावः
रूपाभावः अस्ति
हा अतः केवलं तत्र वायौ एव रूपाभावः अपि अस्ति स्पर्शः अपि
अस्ति
अस्ति अतः तत्र इदानीं वयं दलद्वयेन वयं जानीमः तत्र अतिव्याप्तिदोषः नास्ति
आं महोदय
हा अतः तत्र दलद्वयं नाम तत्र इण्टर्सेक्षन् इति यदि वदामः तत्र तदेव अस्ति अत्र तत्र केवलं रूपाभावः इति वदामश्चेत् अतिव्याप्तिदोषः स्पर्शः इति वदामश्चेत् अतिव्याप्तिदोषः किन्तु दलद्वयेन वायुः इति एव प्राप्नुमः अतः इदानीं लक्षणं सम्यक् अस्ति हा इति वार्ता हा इत्थमेव तत्र इत्थमेव इदानीम् अग्रे महोदय तत्र इत्थमेव
सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इत्यादिषु जलद्वय घटितलक्षणेषु बोध्यं भक्ष्यते सो
नाम
मनः मनः सुखस्य अनुभवस्य साधनं मनः इत्यादिषु
तत्र इदानीं लक्षणवाक्यम् एतदेव लक्षणवाक्यम् अग्रे भवति एतावत्पर्यन्तं मनः मनः इति अस्ति मनसः लक्षणवाक्यं किं सुखाद्युपलब्धिसाधनम् इन्द्रियं मनः अतः तत्र दलद्वयमस्ति वा एकमेव दलमस्ति वा अत्र
द्वयम् इन्द्रियम् अस्ति सुखादि उपलब्धिसाधनम्
अपि अस्ति हा केवलम् इन्द्रियम् इति वदामश्चेत् तत्र घ्राणेन्द्रियम् एतत् सर्वं भवति खलु अतः अतिव्याप्तिः भवति अतः एतत् सर्वं तत्र अतिव्याप्तिदोषनिवारणाय तत्र दलद्वयं भवति लक्षणवाक्येषु इत्यादिषु एतादृशवाक्यानि वयम् अग्रे पश्यामः वक्ष्यते तत्र बोध्यं तत्र बोध्यम् अपि वयं तत्र वदामः तत्र दलसार्थक्यं कथं भवति इति तस्मिन् सन्दर्भे वदामः अतः तत्र केवलं तत्र वायोलक्षणे एव तत्र दलद्वयम् अस्ति इति चिन्तनं मास्तु अग्रे गत्वा एतादृशी परिस्थितिः बहुत्र भवति अतः तत्र दलसार्थक्यं कथं करणीयमिति अस्माभिः ज्ञातव्यं भवति अतः एव एतद् उदाहरणम् अत्र तत्र
महोदय पूर्वम् उष्णस्पर्शवान् तेजः शीतस्पर्श वत्य आपः द्वे धर्मः सन्ति खलु उष्णत्वम् अस्ति स्पर्शत्वम् अस्ति
इति नास्ति महोदय तत्र उष्णत्वम् अस्ति इति न महोदय तत्र स्पर्शः तत्र शीत इति तादृशस्पर्शः इति एव अस्ति केवलं स्पर्शः अस्ति स्पर्शस्य विशेषणमस्ति शीतस्पर्शः
अस्तु महोदय
हा अतः तत्र समीचीनं महोदय किन्तु तत्र जले स्पर्शः अपि अस्ति शीतः अपि अस्ति इति नास्ति तत्र पदार्थद्वयं नास्ति एकं स्पर्शः एव अस्ति किन्तु कीदृशः स्पर्शः नाम शीतस्पर्शः विशेषणं तत्र अपि तादृशः एव उष्णस्पर्शः तादृशः स्पर्शः तत्र तेजसि अस्ति इति अतः तत्र दलम् एकमेव अस्ति महोदय हा
अस्तु अस्तु
हा समीचीनं हा अस्तु इदानीं तत्र अग्रे सरामः तर्हि एतावत् कोऽपि प्रश्नः समीचीनमस्ति वा तत्र सर्वे अवगतवन्तः वा तत्र नाम दलद्वयम् अतिव्याप्तिदोषनिवारणाय अस्ति वारणाय अस्ति इति अस्तु हा इदानीम् अग्रे तत्र शोभा भगिनी अग्रे पठति वा
महोदय अद्य श्रोतुम् इच्छामि क्षमताम्
अस्तु भगिनि अस्तु अस्तु
धन्यवादः
अस्तु तर्हि तत्र धनश्री भगिनी अग्रे पठितुम् इच्छति वा
आम् आम् महोदय अयं च रूपाभावः तत्र
इति तथा
अयं च रूपाभावः रूपसामान्याभावः रूपं नास्ति इति प्रतीतिसिद्धः तत्र सामान्य अभावी अभावीय प्रतियोगिता अवच्छेदकत्वं प्रागुक्तं विचिन्त्य रूपत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता अवच्छेद्यता आश्रय प्रतियोगिता निरूपित अनुयोगिताश्रयः अभावः इत्यर्थः लभ्यते.
तत्र चित्रमस्ति.
चित्रमस्ति अत्र रूपमस्ति अनन्तरम् अभावः अस्ति. रूपे रूपत्वमस्ति, रूपे प्रतियोगिता अपि अस्ति. रूपत्वं रूपत्वे कश्चित् अवच्छेदकता अस्ति. सा अवच्छेदकता निरूपित अवच्छेद्यता प्रतियोगितायाम् अस्ति. तस्य आश्रयः प्रतियोगितायाम् अस्ति. प्रतियोगितानिरूपितया अनुयोगिता अस्ति. सा अनुयोगितायाः आश्रयः अभावः अस्ति. एतदेव उपरि दत्ते वाक्ये अस्ति.
तत्र नाम तत्र अनियोगिता अभावे अस्ति, रूपे प्रतियोगिता अस्ति, किन्तु तत्र रूपे
कीदृशी प्रतियोगिता अस्ति?
कीदृशी प्रतियोगिता इत्युक्ते तत्र तस्याः अवच्छेदकः कः इत्युक्ते रूपत्वमेव. यत्र यत्र रूपत्वम् अस्ति तत्र तत्र प्रतियोगिता वर्तते खलु. यत्र रूपत्वं नास्ति तत्र रूपाभावस्य प्रतियोगिता, तत्र निरूपितप्रतियोगिता नास्ति तत्र. अतः तत्र रूपत्वमेव अवच्छेदका अवच्छेदकम् अस्ति. अतः तत्र रूपत्वे अवच्छेदकता अस्ति, प्रतियोगितायाम् अवच्छेद्यता अस्ति. अतः तत्र अस्मिन् चित्रे
रूपत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः प्रतियोगिता निरूपित अनुयोगिताश्रय अभावः
अभावः. एतादृशं वाक्यं वयं बहुवारं कृतवन्तः खलु. अपि तत्र तत्र वयम् एतदपि तत्र लघुरूपेण एतद् दीर्घवाक्यं तत्र रूपत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय प्रतियोगिता तत्र लघुरूपमपि आसीत् तत्र नाम रूपत्व रूपत्व अन्य कोऽपि स्मरति वा तत्र लघु
रूपत्व अवच्छेदकता
न न एतद् दीर्घमस्ति तत्र एकमेव पदं
रूपत्मख
रूपत्व
अवच्छिन्न
हा रूपत्वावच्छिन्नं प्रतियोगिता निरूपित
अनुयोगिता
अभावः. अतः तत्र एतत् एतस्य चित्रस्य लघुरूपं केवलं तत्र अवच्छिन्ना इति यदि वदामः तावत् पर्याप्तं. रूपत्वावच्छिन्न प्रतियोगिता किन्तु तत्र अन्यत् तत्र आशयः एतत् सर्वमपि अस्ति. अतः तत्र दीर्घवाक्यमस्ति किन्तु अर्थः तु चित्रस्य अर्थः तु अस्माभिः अवगम्यते एव. अस्तु समीचीनम्. अतः तत्र केवलम् अभावस्य पूर्वं दृष्टम् एतद् तस्य विवरणं तत्र एतादृशविवरणम् अस्तु. समीचीनम्. अस्तु अग्रे तत्र अग्रे किञ्चित् पठति वा भगिनि तत्र अयम्
अयं प्रागुक्तार्थ दार्ढ्याय पुनः स्मारित वायुविभागस्तु प्रागेव विचिन्तित प्रागेव चिन्तितः तत्र शरीरे सञ्चरतः वायोः स्थानभेदात् संज्ञाभेदामाः शरीरान्तः सञ्चारति इति उपाधिः हृदयादिस्थानानि अधिकमन्यत्र
तावदेव. अस्तु
प्राग् यद् उक्तमस्ति तस्य दार्ढ्यं पुनः स्मारणं दार्ढ्याय एतद् चित्रम् अस्माभिः दृष्टं. वायुविभागः तु प्रागेव चिन्तितः तत्र शरीरे सञ्चरतः वायोः स्थानभेदात् संज्ञाभेदं भवति. शरीरे यत्र वायुः सञ्चरति तत्र स्थानानुरूपं तस्य संज्ञाभेदाः सन्ति. यत्र पञ्चवायुवत् वयं वदामः उपाधि पञ्चप्राणवायुः उपाधिः हृदयादिस्थानानि नाम यत्र यत्र तद् वायुः अस्ति तत् स्थानं तस्य उपाधिः इति हृदयादिस्थानानि अधिकम् अन्यत्र
तावदेव पर्याप्तं तत्र वायुविषये अधिकं ज्ञातुम् इच्छन्ति चेत् अन्यत्र पश्यन्तु इति समीचीनम्. अपि तत्र धार्ढ्यं धार्ढ्याय तत्र चतुर्थीविभक्ति तत् कर्तुं तत्र धार्ढ्याय तत्र धार्ढ्यम् इत्युक्ते
अधिकं कण्ठस्थीकर्तुम् अथवा अधिकं
तत्र दृढम् इत्यस्य भावः तत्र भावः दृढता इति अथवा सुन्दरता अथवा सौन्दर्यं शै प्रत्यय धार्ढ्यम् इति धार्ढ्यं तत्र धार्ढ्यम् इति तस्य तत् कर्तुं तत्र दृढं भवतु तत्र अभावस्य विवरणम् अस्माकं मनसि दृढं भवतु इति चिन्तयित्वा एतत् पुनः स्मारितः अस्ति तावदेव. समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे तत्र अग्रे उषा भगिनी अग्रे पठति वा.
अस्तु महोदय,
इदानीम् अत्र अस्ति.
क्रमप्राप्तम् आकाशं निरूपयति. शब्दगुणकम् आकाशं तच्च एकं विभु नित्यं च इति. शब्दः गुणः यस्य तत् शब्दगुणकम्. अत्र यद्यपि गन्धवती पृथ्वी इति लक्षणकरणम् इव शब्दवत् आकाशम् इति लक्षणकरणमेव उचितं, तथापि मीमांसकाः शब्दः द्रव्यम् इति यत् अङ्गीकुर्वन्ति तत् निराकरणाय तस्य गुणत्वव्यवस्थापनाय च लक्षणे गुणपदं स्थापितम्. क्रमप्राप्तम् आकाशं वयं पठितवन्तः, पृथ्वी, शीत आपः, तेजः, वायोः लक्षणम्. अत्र शब्द आकाशस्य लक्षणम् उक्तं. शब्दगुणकम् आकाशम् इति दत्तं, तच्च इति लक्षणवाक्यं. शब्दगुणकं गुणकम् इत्यत्र शब्दः गुणः यस्य तत् इति शब्दगुणकम् इति दत्तं.
यस्य पदार्थस्य शब्दः अस्ति,
यस्य पदार्थस्य गुणः शब्दः अस्ति तत् शब्दगुणकम्
पदार्थः आकाशः.
आम् महोदय,
शब्दगुणकं नाम यस्य वस्तु अथवा तत्र इति यस्य शब्दगुणकं यस्य गुणः शब्दः अस्ति तदेव आकाशम्. आकाशः अस्ति अपि यथा भवती उक्तवती एकमेव आकाशम् एकमेव अस्ति. बिभु अस्ति, बिभु इत्युक्ते
बिभु पर्वेडेड् आल्
तत्र नाम सर्वत्र अस्ति,
सर्वत्र
अस्ति इति
व्याप्नोति,
सर्वव्यापी सर्वत्र अस्ति. अपि नित्यः अस्ति नाम तत्र नाशः न भवति. अपि तत्र कारणमपि कार्यं नास्ति, तत् तस्य उत्पत्तिः अपि नास्ति, नाशः अपि नास्ति, पदार्थः अस्ति.
एकं विभु नित्यं शब्दगुणकम् एकं विभु नित्यं,
किन्तु लक्षणं तु एकमेव
शब्दगुणकमेव लक्षणवाक्यम्. ओके, शब्दगुणकम् आकाशं
केवलं विवरणं किन्तु लक्षणं
ओके.
नाम यदि विभु इति तत्र कालः अपि विभुद्र द्रव्यं भवति, अतः तत् लक्षणं नास्ति, केवलं एतत् विभु अस्ति, एकमेव अस्ति, नित्यम्
एकमेव अस्ति, नित्यमपि अस्ति.
गन्धवती पृथ्वी इति लक्षणम् आसीत्, तदनन्तरं तत्र स द्विविधा नित्यम् अनित्यम् इत्येतादृशम् आसीत्. अत्र वदति नित्यमिति नास्ति, यतोहि एकमेव अस्ति.
अस्ति,
अस्तु, अग्रे.
आम् महोदय, अत्र यद्यपि गन्धवती पृथिवी इति लक्षणकरणम् इव शब्दवत् आकाशम् इति लक्षणकरणम् एव उचितं, तथापि
किम् उचितं भवेत्?
यद्यपि गन्धवती पृथ्वी इति लक्षणकरणं दत्तं, शब्दवत् आकाशम् इति लक्षणकरणम् उचितम् इति अस्माकं चिन्तयति चेत्, चिन्तनं चेत्, तदापि यद्यपि तथापि मीमांसकाः शब्दः द्रव्यम् इति यत् अङ्गीकुर्वन्ति. ओके, मीमांसकाः शब्दः द्रव्यम् इति वदन्ति, तत् तत् निराकरणाय तस्य गुणत्वं गुणत्वव्यवस्थापनाय लक्षणे गुणपदं स्थापितम्.
अतः तत्र गुणपदं किमर्थं लक्षणे स्थापितमस्ति?
मीमांसकाः वाक्यं निराकरणाय, मीमांसकाः निराकरणाय.
मीमांसकाः
शब्दः द्रव्यम् इति मीमांसकाः वदन्ति, द्रव्यं नास्ति, शब्दगुणकमेव, गुणत्वम् एव मुख्यस्थम् अस्ति.
अस्माकं तत्र न्यायशास्त्रे तु शब्दः गुणः एव अस्ति.
शब्दः गुणः एव अस्ति,
अतः तत्र शब्दस्य गुणत्वं व्यवस्थापनाय, शब्दस्य तस्य नाम
गुणत्वव्यवस्थापनाय.
समीचीनं भगिनि, अस्तु, तत्र
तस्य गुणत्वव्यवस्थापनाय लक्षणे गुणपदम्
स्थापितम् अस्ति. समीचीनम्, अतः तत्र गुणत्वम् इति सम्यक् रीत्या वयम् अवगच्छामः तत्र. अतः तत्र शब्दः आकाशे अस्ति, शब्दः इति गुणः, तस्य आधारः केवलम् आकाशः एव नाम तत्र अन्य कोऽपि पदार्थः नास्ति यत्र शब्दः वर्तते. समवायसम्बन्धेन शब्दः आकाशे वर्तते, अन्यत्र कुत्रापि शब्दः समवायसम्बन्धेन न वर्तते इति अतः एव तत्र केवलं तत्र एषः गुणः, शब्दः इति गुणः, तस्य आधारः आकाशः, आकाशमेव, अन्यत्र कुत्रापि एषः गुणः न वर्तते. किन्तु सर्वत्र आकाशः, आकाशम् एकमेव, तत्र सर्वत्र विभुः अस्ति आकाशम्, अतः तत्र सर्वत्र यत्र यत्र आकाशः अस्ति तत्र सर्वत्र शब्दः इति गुणः वर्तते एव इति. अतः तत्र शब्द एव शब्दः इति वयम् आकाशस्य लक्षणम् इति स्वीकर्तुं शक्नुमः, यतोहि लक्ष्ये वर्तते, लक्ष्यविजातीयेषु न वर्तते. अपि असम्भव तत्र दोषत्रयम्
त्रिविधदोषाः नास्ति, शब्दगुणकम् आकाशम्,
शब्दगुणकम् आकाशम्, तत्र शब्दगुणकं, तत्र समासाः सन्ति तत्र, किन्तु अग्रे पश्यामः. अस्तु, तत्र किन्तु यस्य शब्द यस्य गुणः शब्दः इति तत्तु बहुव्रीहि,
बहुव्रीहि,
समीचीनं भगिनि, बहुव्रीहिसमासः भवति. अस्तु, समीचीनम्, अस्तु, अग्रे सरामः तर्हि. तत्र धन्यवादः भगिनि. अस्तु,
धन्यवादः महोदय.
विमला भगिनी अग्रे पठितुम् इच्छति वा?
आं महोदय,
शक्नोति खलु भगिनि?
श्रूयते महोदय?
श्रूयते, श्रूयते भगिनि.
सम्बन्धस्य अवच्छेदकत्व व्यवस्थापनं, केचन समवायसम्बन्ध अवच्छिन्न आधेयत्वलाभाय गुणपदमित्याहुः, तेषाम् अयमाशयः. एकः एव पदार्थः अनेकेषु पदार्थेषु भिन्नैः सम्बन्धैः भवति. निदर्शनं घटं स्वीकुर्मः, सः संयोगसम्बन्धेन भूतले वर्तते, समवायसम्बन्धेन कपाले वर्तते, तादात्म्यसम्बन्धेन स्वस्मिन् भवति, वक्ष्यमाणेन कालिकसम्बन्धेन महाकाले वर्तते, विषयितासम्बन्धेन च ज्ञाने वर्तते अत्र चिन्त्यते
हा इति तावत्पर्यन्तं हा
सम्बन्धस्य अवच्छेदकव्यवस्थापनं अत्र सम्बन्धमित्युक्ते लक्षण अपि लक्ष्यस्य वा महोदय
तत्र सम्बन्धः इति नाम तत्र केन सम्बन्धेन एकः पदार्थः अन्यस्मिन् पदार्थे अस्ति इति तत्र गुणः तत्र समवायसम्बन्धेन भवति अथवा तत्र घटः तत्र भूतले संयोगसम्बन्धेन वर्तते इति सम्बन्धः अस्ति खलु सम्बन्धः अपि एतावत् वयं तत्र घटत्वम् अथवा तत्र पूर्वं तत्र वयं किं दृष्टवन्तः तत्र रूपत्वमेव अवच्छेदकम् आसीत् खलु अतः तत्र धर्मः एव एतावत् अवच्छेदकः धर्मः इति एव स्वीकृतवन्तः किन्तु सम्बन्धः अपि अवच्छेदकः भवितुम् अर्हति इति अग्रे विवरणम् अस्ति
न्यायिकाः वदन्ति तेषाम् अयम् आशय तेषाम् इच्छा एतावत् अस्ति पदार्थे अनेकेषु पदार्थेषु वर्तते तस्य सम्बन्धः भिन्नम् अस्ति भिन्नभिन्नपदार्थे भिन्नभिन्नसम्बन्धः अस्ति यथा घटस्य उदाहरणम् अत्र दत्तम् भूतले संयोगसम्बन्धेन अस्ति
अस्ति
समवायसम्बन्धेन कपाले अस्ति स्वस्मिन् तु तादात्म्यसम्बन्धेन अस्ति महाकाले कालिकसम्बन्धेन वर्तते
हा तत्र कालिकसम्बन्धः कः इति एतावत् वयं न ज्ञातवन्तः किन्तु अग्रे वक्ष्य तत्र पश्यामः द्रक्ष्यामः अथ वक्ष्यमाणेन कालिकसम्बन्धेन महाकाले घटः वर्तते
अपि च ज्ञाने विषयितासम्बन्धेन वर्तते
हा
इति अत्र उल्लेखितम्
उल्लेखितम् अतः तत्र एकः एव घटः किन्तु घटस्य घटे अनेके पदार्थे तत्र अनेकेषु पदार्थेषु वर्तते अतः तत्र घटे किम् अस्ति आधेयता अस्ति भिन्नानि अधिकरणानि सन्ति तेषु सर्वेषु तत्र अधिकरणता अपि अस्ति अतः तत्र किम् आगतम् इदानीं तत्र आदेयताः अनेके अनेकाः आदेयताः घटे सन्ति ते भिन्न ताः भिन्नाः इति कथं वयं जानीमः कथं प्रदर्शनीयामः
तेषाम् अधिकरणं भिन्नभिन्नम् अस्ति
हा किन्तु आदेयता घटे एव अस्ति खलु हा इति तत्र घट तत्र घटनिष्ठादि आदेयता निरूपिताधिकरणता याः आश्रयः भिन्नः इति एकः मार्गः समीचीनम् अत्र अन्यः मार्गः इष्टः नाम आदेयताः सन्ति किन्तु तासां तत्र अवच्छेदकं सम्बन्धेन कर्तुं शक्नुमः इति आश्रयमपि स्वीकृत्य कर्तुं शक्नुमः अत्र सम्बन्धः अपि स्वीकर्तुं शक्नुमः इति कर्तुं शक्नुमः इति तत्र प्रदर्शितम् अस्ति हा समीचीनं तत्र अत्र एकः अंशः अस्ति तत्र विषयतासम्बन्धेन ज्ञाने वर्तते हा इति तत्र घटः सर्वदा तत्र कपाले समवयसम्बन्धेन वर्तते किन्तु विषयितासम्बन्धेन ज्ञाने वर्तते तत्तु सर्वदा न भवति तत्र कोऽपि तत्र घटः पश्यति घटस्य ज्ञानं यस्य अस्ति ओ एषः घटः इति यदि कोऽपि तत्र पश्यति चेत् एव तत्र तस्मिन् मनसि ज्ञानं भवति तदा एव तत्र विषयः घटः विषयः भवति ज्ञानस्य विषयः तदा एव विषयितासम्बन्धेन ज्ञाने घटः वर्तते यदि तत्र न कोऽपि नास्ति तत्र घटं द्रष्टुं तदा तत्र किं घटः ज्ञाने विषयितासम्बन्धेन न भवति यतोहि घटः तस्मिन् सन्दर्भे विषयः नास्ति किन्तु यदि तत्र घटः तत्र वने कुत्रापि अस्ति इति चिन्तयतु न कोऽपि जानाति घटः कुत्र अस्ति इति, किन्तु तस्मिन् सन्दर्भे अपि तत्र घटः समवायसम्बन्धेन कपाले वर्तते. अतः तत्र समवायसम्बन्धः नित्यः, किन्तु तत्र विषयितासम्बन्धः अनित्यः. तत्र यदा ज्ञानं भवति तदा एव विषयितासम्बन्धः भवति, नो चेत् नास्ति इति. अस्तु, अतः तत्र अस्तु समीचीनं भगिनि. हा अस्तु, इदानीं तत्र अग्रे सरामः. तर्हि तत्र पठितवती शुभदा भगिनी अग्रे पठितुम् इच्छति वा?
आं महोदय, पठामि.
चित्रे दर्शितरीत्या इति.
आम्, चित्रे दर्शितरीत्या एकस्मिन् घटे अनेकाः आधेयताः सन्ति, ताः तु प्रत्येकं भिन्नाः. ज्ञाने अनुत्पन्ने तत् निरूपिता आधेयता न भवति चेत् चेदपि कपालनिरूपिता आधेयता भवति, तदापि कपाले घटस्य सत्वात् एवम् अन्यत्र. अत्र यदा भवान् उक्तवान् यद्भवान् उक्तवान् तदेव अत्र चित्ररूपेण दर्शितमस्ति. चित्रे एकस्मिन् घटे अनेकाः आधेयताः सन्ति, नाम ज्ञानम् इत्यस्य अधिकरणता अस्ति. तत्र महाकालः अपि, स्वयं, कपालः, भूतलम् इति अधिकरणताः, भिन्नाः अधिकरणताः सन्ति.
अधिकरणानि भिन्नाः सन्ति, अधिकरणानि भिन्नानि सन्ति,
अधिकरणानि भिन्नानि सन्ति. तस्य आधेयताः तु घटे वर्तते. ज्ञाने अनुत्पन्ने तत् निरूपिता आधेयता न भवति. तस्य एक फुट्नोट् इति अस्ति, यदा आत्मनि ज्ञानं नास्ति तदा इत्यर्थः. ज्ञाने अनुत्पन्ने इत्युक्ते यदा आत्मनि एषः घटः इति ज्ञानं नास्ति तदा तत् निरूपिता आधेयता तत्र न वर्तते.
नाम तत्र यदि कोऽपि ज्ञानं कदा भवति? यदि कोऽपि पश्यति घटं वा एषः घटः इति, यदि कोऽपि तत्र द्रष्टुं नास्ति तत्र, हा तदानीं किं भवति? तत्र
तस्य घटस्य ज्ञानं नास्ति.
हा, तस्मिन् सन्दर्भे तत्र ज्ञाने ज्ञानम् अधिकरणं न भवति घटस्य.
हा, ज्ञाने अधिकरणं न भवति. तथापि कपालनिरूपिता अधीयता तु भवति एव. किमर्थं चेत् कपाले तु घटस्य सत्वात् इत्युक्ते कपाले तस्य अधिकरणता अस्ति. तत्र उपरि दत्तमस्ति समवायसम्बन्धेन कपाले घटस्य कपाले
घटः कपाले समवायसम्बन्धेन अस्ति
अस्ति.
तत्र कपालः एव घटस्य अवयवाः, कपालः, तत्र कपालद्वयम्. अतः तत्र वयं पूर्वमपि दृष्टवन्तः तत्र अवयवाः सन्ति चेत् तत्र अवयवी, तत्र नाम घटः तत्र अवयवेषु समवायसम्बन्धेन वर्तते. समवायसम्बन्धः नित्यः, तत्र कदापि तत्र तस्य नाशः न भवति
अतः तदापि कपाले घटस्य सत्वात् एवमेव अन्यत्र अपि एवमेव भवति इति.
हा, अतः नाम तत्र सर्वत्र द्रष्टव्यमस्ति तत्र नित्यं वा अनित्यं वा इति. तत्र महाकाले सर्वदा तत्तु नित्यमस्ति, वयं पश्यामः. तत्र घट नाम नित्यं नाम यावत् पर्यन्तं घटः अस्ति तावत् पर्यन्तं तत्र महाकाले भवति. हा, तत्र घटः नास्ति चेत् अधिकरणता अपि आधेयता अपि नास्ति. हा, अस्तु, तत्र हा अस्तु, समीचीनं भगिनि. हा,
धन्यवादः महोदय.
अस्तु, अग्रे अन्य कोऽपि तत्र सुधा भगिनी अग्रे पठितुम् इच्छति वा?
आं महोदय. सर्वासामासां परस्परभेदज्ञानाय सम्बन्धस्य उपयोगः भवति. कपालनिष्ठाधिकरणतानिरूपित आदेयता ज्ञाननिष्ठाधिकरणतानिरूपित आदेयतावत् आदेयत्वात् भिन्ना कुतः समवायात् समवायसम्बन्धो समवायसम्बन्धो हि घट घटकपालयोः विद्यमानः यम् आदेयता ज्ञाननिरूपिता ज्ञाननिरूपिताधेयवात्
ज्ञाननिरूपित आधेयत्वात्
आधेयत्वात् भिन्ना इति बोधयति इदं बोधकत्वम् एव सम्बन्धस्य आदेयतावच्छेदकत्वम्
किञ्चित् वाक्यं वाक्यं स्वीकृत्य किञ्चित् वदति चेत् सुलभः भवति भवान् भगिनि
सर्वासाम् आसां परस्परभेदसाधनाय सम्बन्धस्य उपयोगः भवति अत्र सम्बन्धः
तत्र सर्वासाम् आसाम् इत्युक्ते कासाम् तत्र परस्परभेदसाधनाय तत्र कासां परस्परभेदं भेदं साधितुम् इच्छामः
घटस्य अन्य
घटः एकः एव एकः एव घटः अस्ति किन्तु तस्मिन् एकस्मिन्नेव घटे तत्र आदेयताः अनेकाः सन्ति खलु अनेकाः सन्ति इति वदामः किन्तु अनेकाः सन्ति इति कथं प्रदर्शितुं शक्नुमः इति प्रश्नः वयं चिन्तयामः अस्तु अस्तु तत्र अनेके अनेकाः आदेयताः सन्ति घटे किन्तु अनेकाः ते ताः भिन्नाः इति कथं जानीमः अतः सर्वासाम् आदेयतानां परस्परभेदसाधनाय भेदं साधितुं वयं कस्य उपयोगः उपयोगं कुर्मः
सम्बन्धस्य
सम्बन्धस्य उपयोगः तत्र भवति सम्बन्धस्य उपयोगं वयं कुर्मः तत्र परस्परभेदभेदः ते ताः भिन्नाः परस्परभिन्नाः इति साधयितुं सम्बन्धस्य उपयोगं वयं कुर्मः अग्रे
कपालनिष्ठा अधिकरणता निरूपित आदेयता अत्र घटः कपाले समवायसम्बन्धेन वर्तते अत्र कपालः एव अधिकरणता कपालनिष्ठ अधिकरणता निरूपित आदेयताश्रयघटः
हा इति समीचीनम् इति एका एका आदेयता अस्ति घटे समीचीनम् अन्या अस्ति ज्ञान
कपालनिष्ठ अधिकरणता निरूपित आदेयता आदेयत्वात् भिन्नाः कुतः
तत्र द्वितीयादेयता अस्ति तत्र ज्ञाननिष्ठ अधिकरणता निरूपित आदेयता सा अपि घटे अस्ति अस्ति किन्तु प्रथमा आदेयता द्वितीयादेया अस्ति तत्र तयोः मध्ये भेदः तत्र ताः भिन्नाः इति कथं जानीमः
ज्ञातुं शक्नुमः कपाले समवायसम्बन्धेन अस्ति ज्ञाने विषय ज्ञाने विषयसम्बन्धेन अस्ति
हा इति समीचीनम् अतः तत्र समवायात् नाम समवायसम्बन्धः प्रथम आदेयता तत्र तत्र वर्तते प्रथम आदेयता या अस्ति तस्यां वर्तते किन्तु द्वितीया आदेयता नाम ज्ञाननिष्ठ अधिकरणता निरूपित आदेयता तस्यां तत्र न वर्तते समवायः अतः तत्र समवायः किं बोधयति
कपाले कपालघट घटयोः सम्बन्धः कः इति एव तत्र
न तत्र घटकपालयोः विद्यमानः तत्र समवायसम्बन्धः किं करोति इयम् आदेयता नाम कपालनिष्ठ अधिकरणता निरूपित आदेयता सा आदेयता ज्ञाननिरूपित आदेयत्वात्
इति
बोधयति नाम तत्र समवायसम्बन्धः इति दृष्ट्वा एषा आदेयता भिन्ना अन्या आदेयता अपि भिन्ना अतः तत्र आदेयताद्वयमस्ति इति अस्माकं ज्ञानं भवति अतः तत्र समवायः किं समवायः किं करोति बोधयति भिन्ना भिन्नता बोधयति अतः तत्र आदेयता भिन्ना इति बोधयति इति कृत्वा तत्र समवायसम्बन्धः एव तत्र आदेयता अवच्छेदकत्वं तत्र सम्बन्धे समवाये सम्बन्धः आदेयत् अवच्छेदकः अस्ति सम्बन्धः समवायसम्बन्धः अवच्छेदकः अस्ति अवच्छेदकः अस्ति इति कृत्वा तस्मिन् सम्बन्धे अवच्छेदकत्वम् इति धर्मः अस्ति समवायसम्बन्धे अवच्छेदकत्वम् अवच्छेदकत्वम् इति धर्मः अस्ति कस्य अवच्छेदकत्वम् आदेयतायाः अवच्छेदकत्वं समवायसम्बन्धे अस्ति अतः समवायसम्बन्धे आदेयता अवच्छेदकत्वम् आगतम् बुद्धं वा भगिनि समीचीनं खलु अस्तु अत्र अन्य कोऽपि प्रश्नः अस्ति वा
आं महोदय प्रश्नः अस्ति एतद् उदाहरणे द्वे द्वे पृथक् सम्बन्धानि सन्ति अतः सम्बन्धः अवच्छेदकः अस्ति यदि कश्चित् उदाहरणे द्वे समवायसम्बन्धौ
समीचीनं समीचीनं महोदय तत्र
सम्बन्धम् समवाय एक एव अतः कस्य कथम् अवच्छेदकम्
महोदय तत्र सन्दर्भ तत्र अनुसृत्य अवच्छेदकमपि भवति अत्र केवलं तत्र एतावत् वयं किं कृतवन्तः धर्मः एव अवच्छेदकत्वम् इति स्वीकृतवन्तः तत्र घटत्वं वा पटत्वं वा जलत्वम् इति एव तत्र अवच्छेदकता अवच्छेदकत्वम् इति स्वीकृतवन्तः किन्तु सम्बन्धः अपि अवच्छेदकः भवितुम् अर्हति इति प्रदर्शयितुम् इच्छति अस्मिन् उदाहरणे सम्बन्धः कार्यं करोति अन्यत्र अन्यत् किमपि कार्यं करोति सम्बन्धः यदि न कार्यं न करोति चेत् अतः तत्र सर्वदा सम्बन्धः इति वार्ता नास्ति एतादृशेषु उदाहरणेषु सम्बन्धस्य उपयोगः कर्तुं शक्नुमः इति तावदेव
अस्तु महोदय यदि समवाय एक एव न अङ्गीकुर्वन्ति तदा समवायसम्बन्धम् अन्य प्रसङ्गे अपि अवच्छेदकं भवितुम् अर्हति
इति भवितुम् अर्हति महोदय किन्तु न्यायशास्त्रे तत्र समवाय एकः इति एव स्वीकृतः अतः सत्यं हा
अस्तु महोदय
हा किन्तु तत्र नाम तस्य उपयोगः अस्ति इति तावदेव तत्र सर्वत्र उपयोगः अस्ति इति नास्ति समवायस्य
अस्तु महोदय
समवायस्य इति अपि न केवलं सम्बन्धस्य नाम संयोगसम्बन्धः वा विषयितसम्बन्धः वा विषय तत्र सम्बन्धं दृष्ट्वा वयं भेदः अस्ति इति साधितुं शक्नुमः इति वार्ता
तावत्
अस्तु अस्तु इदानीं तत्र अग्रे तत्र एकः तत्र एतद् एकवारं पठामः तदनन्तरं विरमामः तर्हि तत्र हा नरसिंहमहोदय भवानेव तत्र एतं परिच्छेदं पठति वा पूर्वभागे इति
महोदय पूर्वभागे घटनिष्ठप्रतियोगिता पटनिष्ठप्रतियोगिता प्रतियोगितातः अन्या इति बोधनाय घटत्वपटत्वयोः उपयोगः दर्शितः परन्तु इह एक एव घटः सर्वत्र वर्तते इति आदेयत अवच्छेदकव्यवस्थापनाय आदेयत अवच्छेदक
घटत्वम् आदाय
आदेयत्वानां भेदं न साधयितुं प्रभवामः कुतः घटत्वमपि खलु अवच्छेदकम् एकम् अतः सर्वाः आदेयताः घटत्वावच्छिन्नाः अतः न तेन भेदसिद्धिः पूर्वभागे यत् अस्ति घटपटमध्ये तत्र पटत्वघटत्वम् अवच्छेदकम् आसीत् परन्तु अत्र घटमे एकमेव घटः सर्व तत्र भिन्नभिन्नसम्बन्धैः भिन्नभिन्नस्थलेषु वर्तते अतः अत्र तादृशपटत्वघटत्वस्य उपयोगः न भवति अतः अत्र सम्बन्धमेव स्वीकरणीयः इति
नाम तत्र घटत्वमिति तत्र सर्वत्र आदेयत घटत्वेन अवच्छिन्न अस्ति
अस्ति
तत्र तत्र यत् या आदेयत तत्र घटे अस्ति सा आदेयत तत्र ज्ञाननिष्ठ अधिकरणता निरूपित आदेयत घटे या अस्ति सा तु घटत्व अवच्छिन्ना अस्ति किन्तु तेन न कोऽपि लाभः नाम तत्र तेन भेदं न साधयितुं शक्नुमः यतोहि तत्र महाकाल अथवा तत्र कपालनिष्ठ अधिकरणता निरूपित आदेयता या घटे अस्ति तत्रापि घटत्वमेव अवच्छेदकं भवति अतः तत्र सर्वत्र तत्र पञ्च आदेयताः सन्ति तासां तत्र घटत्वमेव अवच्छेदकं किन्तु तेन वयं भेदः न ज्ञातुं भेदः अस्ति इति न ज्ञातुं शक्नुमः अतः तत्र भेदसिद्धिः न भवति अतः तत्र अवच्छिन्नाः सन्ति आदेयताः किन्तु अन्यापि तत्र अन्य अवच्छेदकमपि आवश्यकम् अस्ति सः एव तत्र सम्बन्धः इति अस्तु तावत्पर्यन्तं अद्य पठितवन्तः अस्तु समीचीनमस्ति अग्रिमवर्गे तत्र अग्रे सरामः तर्हि अस्तु सर्वेभ्यो नमः धन्यवादः
धन्यवादः महोदय
मिलामः
धन्यवादः धन्यवादः